नमस्सर्वेभ्यः अद्य सम्पूरामायणस्य बालकाण्डे सप्तविंशः पाठः जून् मासस्य पञ्चविंशः दिनाङ्कः मङ्गलेन आरम्भं कुर्मः। कोऽपि मङ्गलं कर्तुमिच्छति? वेङ्कटेश्वरं
लक्ष्मीं तनोतु नितराम् इतरानप्रेक्षम् अङ्घ्रिद्वयम् निगमशाकिशिका प्रवालम् ऐरम्भमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्धिभेद शतधार दुरन्तरम् नः।
सम्यक्, धन्यवादाः। विश्वामित्रः तस्य यागं समाप्य सीतया सह रामं योजयितुं मिथिलां प्रति प्रतिष्ठते। रामलक्ष्मणौ नयति, तत्र मार्गे तेन कथा उच्यते, कुशस्य कथा, विश्वामित्रस्य पूर्वजानां कथा। कुशः, तस्य चत्वारः पुत्राः कुशाम्बः, कुशनाभः, अधूर्तरजसः, वसुश्चेति। तत्र कुशनाभस्य कन्याशतम् आसीत्, ये वायना याः वायनाशक्ताः, पुनश्च ब्रह्मदत्तम् ऊढ्वा प्रकृतिं प्राप्तवत्यः इति। ततः कुशनाभः पितुः प्रसादेन गाधिनामकं पुत्रं प्राप्तवान्, गाधेः पुत्रः एव विश्वामित्रः इत्येवं स्वस्य कथाम् उक्तवान्। ततश्च शोणानदीतीरात् प्रस्थाय गङ्गानदीमार्गेण प्रस्थिताः रामालयः इति। तत्र गङ्गानद्याः एकः श्लोकः दृष्टः। आजानपावनक्षीराम् दृशानन्दविधायिनीम् श्रुतिप्रणयिनीम् सोऽयम् आपगामापगामिव। तत्र गामिव इत्यत्र चतुर्धा व्याख्यानं व्याख्यातृभिः प्रदर्शितं, तदपि ज्ञातवन्तः। अग्रे गच्छामः। अग्रे गङ्गानदीतीरे गङ्गायाः कथा उच्यते विश्वामित्रेण। ततः पूर्वं गतवर्गे केनचित् पृष्टमासीत् कः प्रसङ्गः, विश्वामित्रः किमर्थं स्वस्य कथां कथयितुम् आरब्धवान्, कस्मिन् प्रसङ्गे सा कथा इति। तत्र रामायणं पश्यामः चेत् एषा कथा शोणानद्याः तीरे एव विश्वामित्रेण कथ्यते। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे, वेरि इण्ट्रेस्टिङ्ग् यूसेज्, लम्बमाने दिवाकरे, सो वेन् द सन् वास् सेट्टिङ्ग् इत्यर्थः। सो लम्बन, टु हेङ्ग् डौन् इस् काल्ड् लम्बन। सो लम्बमाने दिवाकरे, सो वेन् द सन् वास् हेङ्गिङ्ग् डौन् द स्कै, दट् इस् हि वास् मूविङ्ग् बिलो द होरैज़न् इत्यर्थः। वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः। तत्र मुनिगणाः, वस्तुतः यदा विश्वामित्रः सिद्धाश्रमतः प्रतिष्ठते तदा न केवलं सः रामलक्ष्मणौ, तैः सह अन्येपि बहवः मुनयः गच्छन्ति इत्येव रामायणे अस्ति। अतः ते सर्वेऽपि शोणानद्याः तीरे वासं कुर्वन्ति। अथरामो महातेज विश्वामित्रं तपोधनं वप्रच्छ मुनिशार्दूलं कौतूहल समन्वितः। तत्र रामः विश्वामित्रं पृच्छति, भगवन् कोन्वयन् देशः समृद्धवनशोभितः, श्रोतुमिच्छामि भद्रन्ते वक्तुमर्हसि तत्त्वतः। अयं कः देशः, कस्मिन् प्रदेशे स्मः, अस्य कथां वदतु इति श्रीरामः विश्वामित्रं पृच्छति। चोदितो रामवाक्येन कथयामास सुव्रतः, तस्य देशस्य निखिलं ऋषिमध्ये महातपाः। तदा विश्वामित्रः कथयितुम् आरभते, कुशस्य कथाम् उक्त्वा। तत्र कुशस्य चतुर्थः पुत्रः, किल चत्वारः पुत्राः कुशाम्बप्रमुखाः, कुशाम्बः, कुशनाभः, अधूर्तरजसः, वसुः, तैः चत्वारि नगराणि निर्मितानि इत्यपि दृष्टवन्तः। कौशाम्बी, महोदय, धर्मारण्य, गिरिव्रज इति। तत्र चक्रे पुरवरं राजा वसुर्नाम गिरिव्रजम्, कुशस्य चतुर्थः पुत्रः वसुः गिरिव्रज नामकं नगरं निर्मितवान्। एषा वसुमती नाम वसोस्तस्य महात्मनः। सः देशः देशस्य नाम वसुमती, वसोः देशः इति। सो एते शैलवराः पञ्च प्रकाशन्ते समन्तपः। शोणा नदी इस् विदिन् सिचुएटेड् विदिन् द कण्ट्री आफ् वसु द गिरिव्रज। So he is showing that to Rama. So there are five hills. Shailavaraha pancha prakashante samantataha. Sumagadhi nadi ramya magadhan vishrutayayau panchanam shailamukhyanam madhye valeva shobhate. And the nadi, the Shona nadi is called Sumagadhi. So Magadha deshat pravahati panchanam parvatanam madhye pravahati. ततः आगता सा नदी। अतः तं देशं वर्णयितुं कुशस्य प्रसङ्गं स्वीकृतवान् विश्वामित्रः। ततः एवं कुशस्य कथा उक्ता आरब्धम् इत्यतः अग्रे कुशनाभस्य कथाम् उक्त्वा स्वस्य उत्पत्तिमपि कथयति। सो सः प्रसङ्गः रामायणे। सो भोजा डजन्ट् टच् आल् दिस्, सो इट् लुक्स् अ बिट् स्लैट्लि डिस्कनेक्टेड् बिकास् हि डजन्ट् से आल् आफ् दीस्। सो तथैव विश्वामित्रः गाधेः कथाम् उक्त्वा, सपिता मम काकुत्स्थ गाभिः परमधार्मिकः कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन। सो तत्र वदति अहं कुशवंशे जातः कौशिकः अस्मि, गाधिः एव मम पिता। ततः अग्रजायाः विषये अपि वदति, पूर्वजा भगिनी चापि मम राघवसुव्रता नाम्ना सत्यवती नाम ऋषीके प्रतिपादिता। विश्वामित्रस्य अग्रजा सत्यवती इति आसीत्, ऋचीकस्य पत्नी, ऋचीकः इति महर्षिः, तस्य पत्नी पूर्वजा, विश्वामित्रस्य अग्रजा। सशरीरा गता स्वर्गं भर्तारमनुमत्तिनी, कौशिकी परमोदारा सा प्रवृत्ता महानदी। सा सत्यवती सशरीरा स्वर्गं प्राप्तवती, पतिम् अनुयाति स्वर्गं प्रति। ततः लोकानुग्रहार्थं कौशिकी नदी रूपेण सा प्रवहति विश्वामित्रस्य अग्रज। ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखं भगिन्यां स्नेहसंयुक्तः कौशिक्या रघुनन्दन। अतः एव सामान्यतः विश्वामित्रः हिमालये कौशिकी नद्याः तीरे एव वसति। सा कौशिकी वस्तुतः विश्वामित्रस्य अग्रज। सो इदानीं तु यागकारणेन अत्र आगतः इत्यपि सः कथयति। अहं हि नियमात्राम हित्वा तां समुपागतः। सो नियमात् नाम यज्ञस्य कारणेन तां हित्वा, तां नदीं त्यक्त्वा आगतः, सिद्धाश्रमम् अनुप्राप्तः, सिद्धोऽस्मि तव तेजसा। सो यज्ञकारणार्थं सिद्धाश्रमं प्राप्तः, किन्तु सिद्धिः तव कारणेनैव मया प्राप्ता इति रामं कथयति। एषा राम ममोत्पत्तिः, मम वंशस्य कीर्तिता, देशस्य च महाबाहो यन्मांसं परिपृच्छति। रामः एकं प्रश्नं पृष्टवान्, विश्वामित्रः तं सर्वम् उक्तवान्। सो देशस्य कथा उक्ता, विश्वामित्रस्य उत्पत्तिविषये, तस्य वंशविषये सर्वमपि कथयति। सो दिस् वास् द प्रसङ्ग। सो तत्र देशस्य इत्युक्ते शोणाकूलीय देशस्य गिरिव्रजस्य। सो दट् इस् द व्याख्यान, द व्याख्याकार सेस्, सो शोणा इस् द नदी आन् द बेङ्क्स् आफ् विच् दे आर् स्टेयिङ्ग् एण्ड् द देश इस् गिरिव्रज। सो गिरिव्रजस्य कर्ता वसुः, वसोः पिता कुशः। सो एवं कुशस्य कथा, ततः कुशनाभस्य इत्यादि सर्वमपि उक्तं विश्वामि। अग्रे गच्छामः। इदुनाश् अधुना श्रोणानदीमतीत्य गङ्गां प्राप्तवन्तः। अथ भागीरथी कथां श्रोतुकामाय रामाय भगवान् इदमभाषत। सो अथ भागीरथी कथां श्रोतुकामाय रामाय भगवान् इदम् अभाषत। सो गङ्गानदीं प्राप्य तस्याः कथां श्रोतुमिच्छति रामः। सो तस्मै पूज्यः विश्वामित्रः एवं कथयामास अभाषत। तत्र श्रोतुकामः, ஸ்ரோதும் காமஹ யஸ்ய சஹ தஸ்மை ஸ்ரோது காமாய. சோ ஸ்ரோதும் காமஹ இத்யஸ்தி தத்ர தும் காம மனசோரபி இதி வாஸ்திகேன துமுனி யஹ மகாரஹ தஸ்ய லோபஹ. சோ கர்த்து காமஹ போக்து காமஹ சர்வத்ர போக்தும் காமஹ மகாரஸ்ய லோபஹ கர்த்தும் காமஹ மகாரஸ்ய லோபஹ தும் துமுன் பிரத்யஸ்ய யஹ மகாரஹ தஸ்ய லோபஹ பவதி காம சப்தே பரே ஏவம் மனஷ் சப்தே பரே. சோ ஸ்ரோது மனாஹ போக்து மனாஹ போக்து காமஹ போக்து மனாஹ இதி பிரயோகஹ அஸ்தி. அத பாகீரதி கதாம் ஸ்ரோது காமாய ராமாய பகவான் இதம் அபாஷத. ஸ்லோகஹ ராஜலட்சுமி
புரா மனோரமா நாம புரா மனோரமா நாம
சுமேரோரபவத்சுதா
கிருஹமேதீதயைவாசீத் சக்கரவர்த்தீதராபிருதாம் புரா மனோரமா நாம சுமேரோ அபவத் சுதா கிருஹமேதி அபவத் சுதா கிருஹமேதி தயைவாசீத் ச சக்கரவர்த்தி சக்கரவர்த்தி தராபிருதாம்.
சம்யக் புரா மனோரமா நாம சுமேரோஹ அபவத் சுதா கிருஹமேதி தயா ஏவ ஆசீத் சக்கரவர்த்தி தராபிருதாம். சோ இத ஆரம்ப பஹவ ஸ்லோகாஹ அனுஷ்டுப் சந்தசி ஏவ சந்தி. சோ மெனி ஸ்லோகாஸ் ஃப்ரம் ஹியர் நரேட்டிங் த ஸ்டோரி ஆஃப் கங்கா. சோ தேர் ஆல் ஸ்மால் ஸ்லோகாஸ் இன் அனுஷ்டுப் ஈஸி ஸ்லோகாஸ். சோ புரா பூர்வ காலே அபவத் சுமேரோர் அபவத் சுதா அபவத் ஆசீத் கா ஆசீத் சுதா புத்ரி ஆசீத் கஸ்ய சுதா சுமேரோஹோ மேரு பர்வதஸ்ய சுமேருஹு மேரு பர்வதஹ சோ தஸ்ய சுதா ஆசீத் கிம் நாமா சுதா மனோரமா நாம. சோ த சுமேரு ஹேட் அ டாட்டர் கால்ட் மனோரமா. சோ புரா மனோரமா நாம சுமேரோஹோ சுதா அபவத். புனா ஆசீத் இது த்வித்தீய வாக்கியே க்ரியாபதமஸ்தி. அபூத் கஹ ஆசீத் தராபிருதாம் சக்கரவர்த்தி தராபிருதஹ நாம பர்வதாஹ. சோ பர்வதானாம் சக்கரவர்த்தி சார்வபௌமஹ சோ பர்வதராஜஹ ஹிமாலயஹ கீத்ருஷஹ ஆசீத் கிருஹமேதி கிருஹமேதி நாம கிருஹஸ்தஹ கயா கிரஹமேதி ஆசீத் தயா மனோரமயா ஏவ கிரஹமேதி ஆசீத் அர்த்தாத் ஹிமாலயஹ தாம் மனோரமாம் பரிணீதவான். சோ தஸ்யாஹ பதிஹ ஆசீத் இத்யர்த்தஹ. சோ த மேரு சுமேரு மவுண்டன் சுமேரு ஹேட் அ டாட்டர் கால்ட் மனோரமா ஹூ வாஸ் த வைஃப் ஆஃப் த கிங் ஆஃப் மவுண்டன்ஸ் தட் இஸ் ஹிமாலய. புரா மனோரமா நாம சுமேரோ சுதா அபவத் தராபிருதாம் சக்கரவர்த்தி தயா ஏவ கிருஹமேதி ஆசீத். சோ பூர்வ காலே மேருபர்வதஸ்ய மனோரமாக்யா புத்ரி பபூவ யாம் ஹிமாலயஹ பரிணீதவான் இத்யர்த்தஹ். So very simple. புரா மனோரமா நாம சுமேரோரபவத் சுதா கிரஹமேதீதயை வாசி சக்கரவர்த்தி தராபிருதாம். சோ கிரஹமேதி, கிரஹமேதின் இதி சப்தஹ நகாராந்த புல்லிங்கஹ பிரதமா விபக்தௌ ஏகவசனம் குணி குணினௌ குணினஹ இதிவத் ரூபாணி. அத்ர கிரஹ சப்தஸ்ய பத்னி இத்யர்த்தஹ. கிரஹாஹ தாராஹ. சோ கிரஹைஹி தாரைஹி மேததே சங்கச்சதே இதி கிரஹமேதி. சோ த வேர்ட் கிரஹ, ஹவுஸ் இட்செல்ஃப் மீன்ஸ் த கிரஹிணி, தட் இஸ் த தார. அதேவ கிரஹிணி கிரஹமுச்சியதே இத்யுக்தே வஸ்துதஹ கிரஹ சப்தஹ கிரஹிணி இத்யர்த்தேவ அஸ்தி இத்யர்த்தஹ. ஓகே. சோ கிரஹைஹி தாரைஹி மேததே சங்கச்சதே இதி கிரஹமேதி. So he who is married ityartha. So kaya vivaham krutavan taya manoramaya grihamethi asit. So asit chakravarti, asit chakravarti ityatra shchutva sandhi. So chakravarti ayamapi nakaranta pullingaha chakravartin iti prathama vibhaktau ekavachanam. So chakravarti sarvabhaumaha. The overlord or the emperor is called Sarvabhauma or Chakravarti. Dharabhritam. Dharam vibharti iti dharabhrit. So he who holds up the earth is called dharabhrit. So takaranta pullingaha sasya shashti vibhaktau bahuvachanam. Ekavachanam na bahuvachanam. So dharabhritam chakravarti. Anushtup Chandaha. So as I said, starting from here, so several shlokas, they are all in Anushtup. Pura manorama nama sumero rabhavat suta grihamedhita yai vasi chakravarti dharabhatam. Okay, agrima shlokaha. Venkateshwar and Mahanama. வெங்கடேஸ்வரன் மகோதய,
அமுஷ்யாசீத் ஏகா மந்தாகினி தயோ அன்யா பகவதி சாக்ஷாத் சந்திரசூட குடும்பினி.
சம்யக், புனஹ பட்டது.
கன்யாஹ த்வய கன்யாத்வயம் அமுஷ்ய கன்யா சமுஷ்யாசீத் ஏகா மந்தாகினி தயோ அன்யா பகவதி சாக்ஷாத் சந்திர சூட குடும்பினி.
கன்யாத்வயம் அமுஷ்ய ஆசீத் ஏகா மந்தாகினி தயோ அன்யா பகவதி சாக்ஷாத் சந்திரசூட குடும்பினி. ஆசீத் பபூவ, கிம் ஆசீத், கன்யா த்வயம், சோ புத்ரி த்வயம், த்வே புத்ரியௌ ஆஸ்தாம் இத்யர்த்தஹ. சோ கஸ்ய கன்யா த்வயம் ஆசீத், அமுஷ்ய தஸ்ய தஸ்ய ஹிமவதஹ. சோ பூர்வம் ஹிமவதஹ விஷயே உக்தம். So, tasya himalayasya putri dvayam asit. So, tayoho, tayoho putriyoho eka anyatara asava adya. So, the first among those two daughters was Mandakini, called, she was named Mandakini, who is none other than Ganga. So, anya dvitiya putri sakshat bhagavati. பிரத்யக்ஷ பரமேஸ்வரி. சோ சதி கதா பிராயஹ ஜ்ஞாயதே. சிவஸ்ய பத்னி சதி தக்ஷ புத்ரி. சோ தக்ஷ யஜ்ஞே ஆத்மானம் அக்னௌ பாதயித்வா मरणं प्राप्तवती पुनः हिमवतः पुत्री रूपेण जाता अतः सा साक्षात् भगवती चन्द्रचूड कुटुम्बिनी चन्द्रचूडः शिवः चन्द्रशेखरः तु तस्य भार्या द्वितीया पुत्री नाम्ना उमा सो दिस् हिमवान् एण्ड् मनोरमा दे हेड् टू डाटर्स् सो वन् वास् द एल्डर् वास् मन्दाकिनी एण्ड् द सेकेण्ड् वन् वास् गौरी आर् उमा सरलः श्लोकः अमुष्य कन्याद्वयम् आसीत् तयोः एका मन्दाकिनी अन्या साक्षात् भगवती चन्द्रचूड कुटुम्बिनी सो मनोरमा जानेः हिमवतः सो हिमवान् हु वाज़् द हस्बेंड ऑफ मनोरमा सो तस्य पुत्री द्वयं बभूव तयोः ज्यायसी गंगा अथवा मन्दाकिनी सो कनीयसी प्रत्यक्ष परमेश्वरी चन्द्रशेखरस्य शिवस्य भार्या आसीत् अमुष्य सकारान्तः पुल्लिङ्गः अदस् शब्दः असौ अमू अमूनि अमुम् अमू अमून् अमुना अमूभ्याम् अमीभिः अमुष्मै अमूभ्याम् अमीभ्यः अमुष्मात् अमूभ्याम् अमीभ्यः अमुष्य षष्ठीविभक्तौ एकवचनम् अदस् शब्दस्य चन्द्रचूडकुटुम्बिनी चन्द्रः चूडा यस्य सः सो चूडा चूडालङ्कारः सो इट् इस् अ चूडा इट् इस् यूस्ड् फार् द हेर् एण्ड् इट् इस् आल्सो यूस्ड् फार् अ हेर् आर्नमेण्ट् ओके सो हेर् इत्यर्थे केशार्थे उपयुज्यते चेत् चूडायां चन्द्रः यस्य सः इति अथवा चूडा एव शिरोलङ्कारः इति उपयुज्यते चेत् चन्द्रः एव शिरसः आभरणम् सो सः चन्द्रचूडः शिवः सो तस्य कुटुम्बिनी कुटुम्बिनी भार्या इत्यर्थः किन्तु विशेषः अस्ति भार्या जायाथ पुंभूमि दाराः स्यात्तु कुटुम्बिनी पुरन्ध्री सो द टु इन् अमरा आल्वेज् सेपरेट्स् द वर्ड्स् सो भार्या जाया दाराः आल् दोस् आर् सिम्प्लि फार् अ वैफ् बट् कुटुम्बिनी एण्ड् पुरन्ध्री So it indicates a family woman, a woman who has a family, that is not only the husband, so husband, children and the entire family. So she who is with the kutumba, kutumbam asyaha asti iti kutumbini. So pati putra duhitra adimati kutumbini. So patihi, so bharya indicates only the husband, okay? But kutumbini is husband, the sons and daughters and everything together. पतिपुत्र दुहित्रादिमती कुटुम्बिनी सो ईकारान्त स्त्रीलिङ्गः कन्याद्वयममुष्यासीदेका मन्दाकिनी तयोः अन्या भगवती साक्षात् चन्द्रचूड कुटुम्बिनी अग्रिमश्लोकः केऽपि वक्तुमिच्छन्ति मीनाक्षि नमस्ते तां नदीं विबुधा लब्ध्वा
तां नदीं विबुधा लब्ध्वा तां नदीं विबुधा लब्ध्वा
नाकलोकमनीनयन्
नाकलोकमनीनयन् नाकलोकमनीनयन्
तपस्यन्तीं गिरिर्गौरीम्
तपस्यन्तीं गिरिर्गौरीं तपस्यन्तीं गिरिर्गौरीं
देवाय महते ददौ
देवाय महते ददौ देवाय महते ददौ
पदच्छेदः
तां नदीं विबुधा लब्ध्वा
विबुधाः
नाकलोकम् अनी अनिनयन् तपस्यन्तीं गिरीर्गौरीं देवाय गिरेः गौरीं देवाय महते ददौ.
गिरिः गौरीम् परच्छेदः न दत्तः. ताम् नदीम् विबुधाः लब्ध्वा नाकलोकम् अनीलयन् तपस्यन्तीम् गिरिः गौरीम् देवाय महते ददौ इति छेदः. सो अनीलयन् प्रापितवन्तः. सो शी टुक् देम् टुक् और् कॉज्ड् टु रीच् इत्यर्थः. के अनीलयन् विबुधाः देवाः नीतवन्तः. किं कृत्वा अनीनयन् लब्ध्वा तो प्राप्य. कथम् याच्ञापूर्वकम् हिमवतः अनुमतिम् प्राप्य. सो दे रिक्वेस्टेड् हिमवान् टु गिव् देम् गङ्गा हिस् एल्डर् डाटर् एस् द रिवर्. सो हिमवन्तम् सम्प्रार्थ्य तस्य अनुमतिम् प्राप्य देवाः अनीलयन् कुत्र नीतवन्तः. नाकलोकम् नाकम् नाम स्वर्गम् नीतवन्तः इत्यर्थः. सो काम् अनीलयन् ताम् नदीम् सो मन्दाकिनी हिमवतः ज्येष्ठा पुत्री मन्दाकिनी. सो नदीरूपेण ताम् देवलोकम् नीतवन्तः देवाः त्रिलोकस्य कल्याणार्थम् इति अर्थः. सो कन्या द्वयमासीत्, एका मन्दाकिनी अपरा गौरी. सो मन्दाकिनीं देवाः हिमवतः अनुमतिं प्राप्य देवलोकं नीतवन्तः इति प्रथमं वाक्यम्. द्वितीयं वाक्यं ददौ दत्तवान्. कः ददौ? गिरिः. गिरिः नाम पर्वतः. अत्र हिमवान् इत्यर्थः. काम् ददौ? गौरीम्. गौरी नाम्नीं द्वितीयां पुत्रीं हिमालयः दत्तवान्. कीदृशीं गौरीं? तपस्यन्तीं. सो ईश्वरं प्राप्तुं तपश्चरन्तीं गौरीं कस्मै ददौ? महते देवाय. सो महादेवः शिवः शम्भुः तस्मै दत्तवान्. सो उभयोः पुत्र्योः कथा सङ्ग्रहेण उच्यते. सो ज्येष्ठां जायसीं पुत्रीं मन्दाकिनीं देवाः नदीरूपेण स्वर्गं नीतवन्तः. अत एव सा स्वर्णदी इत्येव कथ्यते. देवगङ्गा. द्वितीयां गौरीं तपश्चरन्तीं. सा बाल्यादेव परशिवं प्राप्तुं तपः चलन्ती आसीत्. तां महादेवाय शम्भवे दत्तवान् गिरि. तत् वाल्मीकिरामायणे उच्यते. अथ ज्येष्ठां सुरास्पर्वे देवकार्यचिकीर्षया शैलेन्द्रं वरयामासुः गङ्गां त्रिपथगां नदीम्. सो ज्येष्ठां नदीं गङ्गां. सो द एल्डर् डाटर् विच् वास् द गङ्गा नदी. सुराः सर्वे देवकार्यचिकीर्षया. सो फार् अचीविङ्ग् द कार्य आफ् द देव वरयामासुः. सो दे आस्क्ड् फार् हर्. सो शैलेन्द्रं वरयामासुः. सो दे रिक्वेस्टेड् हिमवान् टु गिव् देम् हिस् डाटर्. सो गङ्गां त्रिपथगां नदीं. सो गङ्गा इस् काल्ड् त्रिपथग. ओके. सो शि मूव्स् इन् आल् द त्री पथस्. सो दर् इस् स्वर्ग भू एण्ड् पाताल. अतः सा त्रिपथगा इत्युच्यते. ददौ धर्मेण हिमवान् तनयां लोकपावनीं स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया. सो धर्मेण ददौ. सो फार् द कास् आफ् धर्म हिमवान् तनयां दत्तवान्. कीदृशी सा लोकपावनी? स्वच्छन्दपथगा. सो शी मूव्स् इन् वाट् एवर् पात् शी चूसेस्. ओके. सो दट् वास् वन् आफ् हर् कण्डीशन्स् दट् यु शुड् नाट् कण्ट्रोल् मी. सो स्वच्छन्दपथगा त्रैलोक्य हितकाम्यया. सो फार् द वेल्फेर् आफ् द थ्री वर्ल्ड्स्. सो हिमवान् देवेभ्यः गङ्गां दत्तवान्. याचान्या शैलदुहिता कन्यासीत् रघुनन्दन. and the other daughter of the Shaila, that is Himavan. Ugram Subratamasthaya Tapastepe Tapodhana. So she underwent a severe penance. Ugrena Tapasayuktam Dadau Shailavarasutam Rudraya Pratirupaya Umam Lokanamaskatam. So she was Uma and Himalaya gave her to Rudra. So that is this thing from the Ramayana, which she has condensed in just one shloka. So vibhudhaha amara nirjara devas tridasha vibhudha suraha. So vibhudhaha devaha ityarthaha naka lokam swaravyayam swarga naka tridiva tridashalayaha. So this is the first line of amara kosha, the first this thing, I mean after the pithika. The first thing he covers is the swarga. Swaravyayam swarga naka. Swar iti avyayam swarga naka tridiva tridashalayaha. So these are the synonyms of swarga. Aninayanna niya prapane iti dhatuhu tasya nijantas lunglakaraha prathama purushe bahuvachanam. Aninayat aninayatam aninayanna. Tapasyantim. So tapaha charati ityarthe tapas iti subantat kyang pratyayaha bhavati. So kyang is a, this is again a namadhatu. Right? So we saw putriyati, putramatmanaha ichchati. So tapaha charati ityarthe namadhatuhu tapas ityasmat kyang pratyayaha. Tasya shatru pratyayaha tapasyat performing penance. So tasmat strilinge neep pratyayaha. So since it is strilinga, you have the neep. So finally you have the tapasyanti. Ikaranta strilingaha dvitiya vibhaktau ekavachanam. So tapasyantim girir gaurim devaya mahate dadau. Mahate mahat shabdaha. Sakarantah pullingaha chaturthi vibhaktau ekavachanam. Mahate devaya dadau iti tu jnayate dudanya dane dhatuhu letlakare prathama purushe ekavachanam. So tam nadim vibhudha labdhva nakalokamaninayan tapasyantim girir gaurim devaya mahate dadau. Agrimashlokaha.
नमस्ते भगिनी, एकः संशयः अस्ति, तत् दृष्ट्वा इदानीं पृच्छामि वा? तत्र सर्वदा वयं वदामः खलु नीप् आगच्छति चेत् कथं तद् न किमपि अस्ति वा, ईकारान्तः भवति खलु, वयं किमर्थं सकारान्त स्त्रीलिङ्गम् इति न लिखामः? नीप् भवती अपि तादृशमेव, भवत् स्त्रीलिङ्गम् इति न लिखामः खलु, सकारान्त स्त्रीलिङ्गम् इति न लिखामः.
स्वच्छन्द
वारी शब्द गुमिन् शब्दं तादृशं नपुंसकलिङ्गं, तद् इकारान्त नपुंसकलिङ्गम् इति न लिखामः, नकारान्त
नपुंसकलिङ्गं
शब्दवत् गच्छति खलु. तादृशं गच्छति अल्ल, मम संशयः तद् नकारान्तम् इति वदामः वा इकारान्त नपुंसकलिङ्गम् इति वदामः?
गुणिन् इति तु इकारान्तं, शब्दे साम्यं स्यात्, वारि इकारान्तशब्दः, गुणिन् इति नकारान्तशब्दः.
आमां नकारान्तम् इति एव लिखामः.
एकं क्षणम्, अन्यः संशयः अस्ति, ज्यायसि इति पदस्य कथं निष्पत्तिः इति केनचित् पृष्टम्. We have the tarap and tamap, right? So for the comparative and superlative. So dvayoho atishayane tarap bhavati, right? So sundara taraha, sundara tamaha बहूनां मध्ये सुन्दरः चेत् सुन्दरतमः, द्वयोः चेत् सुन्दरतरः. सो एवमेव यथा तरप्तमः भवति तथा अन्यत् प्रत्ययद्वयमस्ति इयसुन् एण्ड् इष्ठन्. सो तरप् यथा तथा इयसुन् भवति, इष्ठन् तु तमप् सः. अतः इदानीं द्वयोः मध्ये यदि द एल्डर् आफ् टू, देन् वि यूस् इयसुन् टु से ज्यायान् आर् ज्यायसि इति स्त्रीलिङ्गे. सो बहूनां मध्ये इदानीं श्रीरामः ज्येष्ठः, सो बहूनां सः अग्रजः किल, अतः ज्येष्ठः. द्वौ एव स्तः चेत् तत्र ज्यायान्, सो ज्यायान् ज्येष्ठः. सो ज्यायान् इस् द एल्डर् आफ् द टु, ज्येष्ठ इस् द एल्डेस्ट् आफ् मेनि. तदेव स्त्रीलिङ्गे भवति चेत् ज्यायसी ज्येष्ठ इति भवति. सो बहूनां शब्दानाम् एवम् इयसुन् अपि भवति, इष्ठन् गरीयान् गरिष्ठ, रैट्. सो कनीयान् कनिष्ठ, यु आल्सो हव् इट् फार् द स्मालर्. सो कनीयान् इस् द यङ्गर् आफ् टु, वेर् अस् कनिष्ठ इस् द यङ्गेस्ट् आफ् मेनि. सो सः शब्दः तत्र इयसुन् इति प्रत्ययः ज्यायसि इत्यत्र. सो देर् इस् विशेष, देर् इस् रेर् रूल्स् विच् आर् इन्वाल्ड् इन् द रैटिङ्ग्, बट् द प्रत्यय इस् इयसुन्. सो यदा द्वयोः सा ज्यायसि, सो से ज्येष्ठ वेन् इट् इस् ओन्ली टु इस् राङ्ग्. ईवन् दो वि से ज्येष्ठपुत्रः एव्रिवेर्, ऐ मीन् indiscriminately we say, even if there are two we tend to use jyeshtha, but then it should be jyayan. So jyayan, gariyan, mahiyan, shreyan, so there are many words of that kind. So pullinge sakarantah bhavati jyayas, okay. Strilinge ikarantah jyayasi. So we'll continue with the next shloka. Any other questions? प्रश्नाः सन्ति वा? जानकी शिवयोर्युञ्जतोर्वीर्यम्,
शिवयोर्युञ्जतोर्वीर्यम्, शिवयोर्युञ्जतोर्वीर्यम्
दृष्ट्वा धात्र्यां समर्पितम्,
दृष्ट्वा धात्र्यां समर्पितम्, दृष्ट्वा धात्र्यां समर्पितम्. पावकः प्रतिजग्राह दैवतैरनुनासितः. शिवयोः युञ्जतोः वीर्यं दृष्ट्वा धात्र्यां समर्पितम्, पावकः प्रतिजग्राह दैवतैः अनुनासितः.
सो शिवयोः युञ्जतोः वीर्यं दृष्ट्वा धात्र्यां समर्पितम्, पावकः प्रतिजग्राह दैवतैः अनुनासितः. सो प्रतिजग्राह स्वीकृतवान् इत्यर्थः, प्रतिगृह्णाति स्वीकरोति. कः प्रतिजग्राह? पावकः नाम अग्निः, अग्निः प्रतिजग्राह. कीदृशः पावकः? अनुनाथितः नाम प्रार्थितः. कैः अनुनाथितः? दैवतैः अनुनाथितः. सो अमरैः देवैः प्रार्थितः अग्निः स्वीकृतवान्. सो किं कृत्वा प्रतिजग्राह? दृष्ट्वा, वीक्ष्य. किं दृष्ट्वा? धात्र्यां समर्पितम्, भूमौ पतितम्. सो किं धात्र्यां समर्पितम्? युञ्जतोः शिवयोः वीर्यम्. सो युञ्जतोः मिलतोः, शिवयोः पार्वतीपरमेश्वरयोः वीर्यम्, रेतः अथवा तेजः. सो द वीर्य आफ् शिव अण्ड् पार्वती, शिवपार्वत्योः विवाहः अभूत्. सो गङ्गायाः कथाम् आरभ्य ततः कार्तिकेयस्य कथा अपि उच्यते विश्वामित्रेण. सो हि स्टार्टेड् वित् गङ्गा. गङ्गा देवलोकं गता, तेन देवनदी जाता. सा गौरीं हिमालयः शिवाय विवाहे दत्तवान्. ततः शिवपार्वत्योः कुमारः कार्तिकेयः, तस्य उत्पत्तिः कुमारसम्भवम् उच्यते. ततः पुनः गङ्गायाः कथा उच्यते. सो इदानीं कार्तिकेयस्य कथां वक्तुम् आरब्धवान्. वस्तुतः देवाः एव शिवं प्रार्थितवन्तः. सती देव्याः मरणानन्तरं शिवः बहुकालं तपसि निरतः आसीत्. यदा पार्वती जाता, तां निमित्तीकृत्य शिवस्य तपोभङ्गं कर्तुं देवाः मन्मथं प्रेषितवन्तः. मन्मथः अनङ्गः जातः. किमर्थं? भूमिका तु तारकासुरः. सो तारकासुरः ब्रह्मणः वरं पृष्टवान्. सो शिशुः, सो अ सिक्स् डे ओल्ड् चैल्ड्, सो ई शुड् नाट् बि किल्ड् बै एनिबडी अदर् देन् सच् अ चैल्ड्. सो शिवस्य पुत्रः, शिवस्य पुत्रं विना अन्येन मरणं न भवेदिति तारकः प्रार्थितवान्. किं ज्ञात्वा, शिवः तु तपसि अस्ति, तत्र पुत्रः न जायेत इत्येव तस्य विश्वासः. अतः देवाः शिवस्य तपोभङ्गं कृत्वा पार्वत्या सह विवाहं कृतवन्तः. किन्तु शिवयोः युञ्जतोः, यदा शिवपार्वत्योः योगः अभूत्, समागमः, तथापि दिव्यं वर्षशतं वाल्मीकिरामायणे उच्यते. सो फार् अ 100 दिव्यवर्ष, सो ईच् डे इन् द दिव्यदिन इस् लैक् हण्ड्रेड्स् आफ् इयर्स् इन् द नार्मल् टैम् फ्रेम्. सो दिव्यं वर्षशतम् इस् अ वेरि लाङ्ग् टैम्. सो तथापि पुत्रः न जातः. सो तदा विल् गो देर् एण्ड् देन् कम् बेक्. सो शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतं, तस्य सङ्क्रीडमानस्य महादेवस्य धीमतः. सो पार्वतीपरमेश्वरयोः विवाहः जातः, किन्तु तेषां समागमे दिव्यं वर्षशतम् अतीतं, तदापि पुत्रः न जातः. तदा देवानां मनसि भयमुत्पन्नं, यदि सो एतादृश्या क्रीडया, योगक्रीडा भगवतोः पार्वतीपरमेश्वरयोः, तया पुत्रः इदानीं यदि जायते तर्हि समग्रः लोकः दग्धः भवेत् इति देवानाम् आशङ्का. बिकास् बिफोर् वेन् सती वास् किल्ड् अण्ड् शिवा वास् आङ्ग्रि, वीरभद्र वास् बोर्न् जस्ट् बै अ स्वेट् ड्राप् आफ् शिव, अण्ड् द एण्टैर् वर्ल्ड् वास् नाट् एबल् टु फेस् वीरभद्र. सो हि वास् आफ् सच् हि सो टेरिफैङ्ग्. So now, after such a long yogic krida of Shiva, so if there is an Aurasa Putra that is born from the tejas of both Shiva and Parvati, so the devas think that the world will not be able to tolerate that. So, tato devaha samudyuktaha pitamaha purogamaha yadihot padyate bhutam kastat pratisahishyate. So tada devaha brahmana sahamilitva chintitavantaha. अनेन शिवपार्वत्योः योगेन यद् भूतम् उत्पद्यते, भूतम् द बीङ्ग् इत्यर्थः. सो द लिविङ्ग् बीङ्ग् विच् इस् बोर्न् आफ् दिस् यूनियन्, कः तत् प्रतिदनिष्यते, हू विल् बि एबल् टु टालरेट् इट्, इट् मैट् डिस्ट्राय् द एण्टैर् वर्ल्ड्. सो अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्, न लोका धारयिष्यन्ति तव तेजः सुरोत्तमः. सो अतः देवाः सर्वे गत्वा शिवं प्रार्थयन्ते, एवं भवतः तेजसः उमायाः तेजसा सह मेलनं भवति चेत् न लोकाः धारयिष्यन्ति, द वर्ल्ड् विल् नाट् बि एबल् टु टालरेट् इट्, अतः तव तेजः मुञ्च इति. एवमुक्तस्तुरपतिः प्रमुमोच महीतले, तेजसा पृथिवीयेन व्याप्ता सगिरिकानना. तदा शिवः स्वस्य वीर्यं भूमौ, देवानां प्रार्थनानुगुणं भूमौ विसृष्टवान्. येन तेजसा पृथिवी सगिरिकानना व्याप्ता. सो एक्चुअली ईवन् द वर्ल्ड् इस् काल्ड् धरा बिकास् शी बेर्. सो धरते इति धरा, बट् ईवन् द अर्थ् वास् नाट् एबल् टु बेर् इट्. सो सगिरिकानना पृथिवी तेन तेजसा व्याप्ता. ततो देवाः पुनरिदम् ऊचुश्चाथ हुताशनम्। सो तदा देवाः अग्निम् प्रार्थयन्ते, अग्निः अपि तेजस्वरूपः, अतः प्रविशत्वम् महातेजः रौद्रम् वायुसमन्वितः। सो वायुना सह त्वम् महातेजः रौद्रम् महातेजः प्रविश। सो दे आस्क् अग्नि टु एन्वलप् द तेजस् आफ् रुद्र अलोङ्ग् वित् वायु। सो तदग्निना पुनर्व्याप्तम् सञ्जात श्वेतपर्वतः दिव्यम् श्रवणम् चैव पावकादित्य सन्निधम्। सो यदा तत्तेजः अग्निना व्याप्तम् तत्र श्वेतपर्वतः सञ्जातः। सो देर् द श्वेतपर्वत वाज् बोर्न् दिव्यम् श्रवणम् चैव एण्ड् द डिवैन् फारेस्ट् आफ् द शरग्रास् शरवण। So Sharavana Bhava, that is why he is called, because he was born in that Sharavana. So that Sharavana grew in that place with the tejas of Agni also. Pavakaditya Sannibham. And that Sharavana was itself had the tejas of Agni and Surya together. So Yatra Jato Mahatejaha Kartikeya Agni Samshavaha. So that is why Kartikeya is Shivasya Putraha. Agni Sambhavaha, because Agni was also involved in birth, he is also called this one, right? So Sharavana Bhava, because he was born in the Sharavana. So Iyam Katha, so Shivayohu Yunjatohu Viryam Dhatryam Samarpitam Drishtva. So Tada Shivasya Tejaha Bhumau Patitam Tadrishtva Daivataihi Anunasitaha. So Devaihi Prarthitaha Pavakaha Agnihi Pratijagraha tat svikritavan. So yunjatoh shivayoh viryam dhatryam samarpitam drishtva daivataihi anunasitah pavakah pratijagraha. So milatoh parvati parameshwarayoh retah tejah bhumau patitam vikshya avaraihi prarthitah agnihi tat svikritavan. Iti shlokasya tatparyam. शिवयोः शिवश्च शिवा च. शिवयोः इति द्विवचनम्, सो इट् डस् नाट् ओन्ली मीन् शिव. शिवश्च शिवा च शिवौ अयम् एकशेषः इत्युच्यते. सो एकशेषः समासः न, देयर् इस् वन् कामन् मिस्कन्सेप्शन्, वि काल् इट् एकशेषसमास. एकशेषः समासः न, एकशेषः द्वन्द्वस्य अपवादः. वेन् वि से रामश्च लक्ष्मणश्च Rama Lakshmanau. So we have both the words and Divachana, right? Similarly, if I say Ramashta Ramashta, it should be Rama Ramau. That is the Dvandva Samasa. If we do a Samasa, you retain both Pratipadikas and put the Divachana. So Yatha Rama Lakshmanau, Tatha Rama Ramau iti bhavet. Kintu Kevalam Ramau iti bhavati. So Tatra Ekaha Eva Shishyate. So Dvau Rama Shabdau. तत्र एकः शिष्यते, अतः एकशेषः, वन् आफ् देम् इस् रिटेन्ड्. सो सिमिलर्ली अन्यत्रापि भवति. माता च पिता च. मातापितरौ द्वन्द्वसमासः क्रियते चेत् मातापितरौ, किन्तु तत्र विकल्पेन पिता शिष्यते. सो पितरौ इत्युक्ते मातापितरौ इत्येव अर्थः. सो अमङ्ग् मातृशब्द एण्ड् पितृशब्द, द पितृशब्द रिमेन्स्. So similarly, Shivashta Shivacha. So usually when we are using the Pullinga word and the Strilinga word, so the Pullinga word will remain and there will be a Dvivachana. So Saha Etasheshaha Ityuchyate. So Shivashta Shivacha Shivau. So Shivaha Parvati Ubhau Ityarthaha. So Jagatah Pitarau Vande. So Pitacha Matacha Pitarau. So Saha Etasheshaha Yunjatoho. युजिर् योगे इति धातोः शत्रु प्रत्ययः. सो तकारान्तः पुल्लिङ्गः षष्ठी विभक्तौ द्विवचनम्. सो युञ्जतोः धात्र्याम् विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा इति पृथिव्याः पर्यायपदेषु सन्ति. भूर्भूमिरचलानन्ता धरा विश्वम्भरा स्थिरा इत्यादि. धात्री भूमिः इत्यर्थः. गौः, सो वि सो द अदर् डे आपगामाप गामिव, गोशब्दस्य भूमिः इत्यर्थः अस्ति. सो भूमेः पर्यायेषु गौः इत्यपि अस्ति. सो धात्र्याम् ईकारान्त स्त्रीलिङ्गः सप्तमी एकवचनम्. पावकः पुनाति इति पावकः. सो पावक इस् फयर् दट् विच् प्यूरिफैस्. पू धातोः नुल् प्रत्ययः. कृशानुः पावको नलः. अनलः पावकः कृशानुः. सो पर्यायज अग्नि. प्रतिजग्राः प्रति इति उपसर्गः. ग्रह उपादाने इति धातुः. सो लिट्लकारे प्रथमपुरुषे एकवचनं जग्राः. दैवतैः. सो दैवत शब्दः. वृन्दारका दैवतानि पुंसि वा देवता स्त्रिया. सो द नार्मल् वर्ड्स् द यूजुवल् वर्ड्स् फार् देवास् आर् आल् पुल्लिङ्ग. अमराः निर्जराः देवाः इत्यादि. वृन्दारकाः दैवतानि. दैवतशब्दः नपुंसकलिङ्गे अस्ति पुल्लिङ्गे अपि अस्ति. दैवतानि पुंसि वा. सो आप्शनली इन् पुल्लिङ्ग आल्सो इन् नपुंसकलिङ्ग. देवताः स्त्रियाम्. सो इन् स्त्रीलिङ्ग इट् इस् देवता. इन् नपुंसकलिङ्ग इट् इस् दैवतम्. इन् पुल्लिङ्ग इट् इस् देवः. सो आल् स्त्रीलिङ्ग हव् वर्ड्स्. सो दैवतैः अनुनाथितः. अनु उपसर्गः. नाथ धातुः. सो द धातु इस् यूस्ड् इन् मेनी सेन्सेस्. याख्या उपताप ऐश्वर्य आशीषु. सो याख्या प्रार्थना इत्यर्थे अत्र प्रयोगः. क्त प्रत्ययः. अनुनाथितः. शिवयोर्युञ्जतोर्वीर्यम् दृष्ट्वा धात्र्याम् समर्पितम् पावकः प्रतिजग्राह दैवतैरनुनाथितः. सद्य भागीरथी कथाम् श्रोतुकामाय रामाय भगवान् इत्थमकथयत्. सो गङ्गायाः कथाम् वक्तुम् प्रारभते विश्वामित्रः. सो तत्र पुरा मनोरमा नाम सुमेरोरभवत्सुता. गृहमेधी तयैवासी चक्रवर्ती धराभृता. सो मनोरमा इति मेरोः पुत्री. हिमवान् हिमालयः ताम् परिणीय. कन्याद्वयमौष्यासीद् एका मन्दाकिनीतयोः. अन्या भगवती साक्षात् चन्द्रचूडकुटुम्बिनी. सो पुत्रीद्वयम् जायसी गङ्गा कनीयसी गौरी. सो ताम् नदीम् विबुधा लब्ध्वा नाकलोकमनीनयन्. सो गङ्गा लोकहितार्थम् दैवतैः नीता स्वर्णदी जाता. तपस्यन्तीम् गिरिर्गौरीम् देवाय महते ददौ. सो तपश्चरन्तीम् गौरीम् हिमालयः महादेवाय दत्तवान्. सो उमा शङ्करेण ऊढा. शिवयोर्युञ्जतोर्वीर्यम् दृष्ट्वा धात्र्याम् समर्पितम् पावकः प्रतिजग्राह दैवतैरनुनाथितः. यदा तयोः पार्वतीपरमेश्वरयोः क्रीडतोः तेजः भूमौ पतितम् देवैः प्रार्थितः अग्निः तत् स्वीकृतवान् इत्येतावत् अद्य दृष्टम्. अग्रे अग्रिमवर्गे पश्यामः. प्रश्नाः सन्ति वा? एनी क्वेश्चन्? वेङ्कटेश्वरन् महोदय मङ्गलम् आचयति वा? धन्यवादाः. अग्रिमवर्गे अनुवर्तयामः.